नमस्सर्वेभ्यः अद्य कोविदवर्गस्य ऊनपञ्चाशः पाठः नवम्बर् मासस्य अष्टमः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो संस्कृतवाङ्मयस्य लघुपरिचयं प्राप्तुं वयं प्रयतमानाः स्मः तत्र प्राधान्येन काव्यं शास्त्रम् इति भागद्वयं कृतम् अध्ययनसौकर्यार्थमेव तत्र काव्यभागे काव्यप्रभेदाः दृश्यकाव्यानि श्रव्यकाव्यानि दृश्यकाव्येषु दशरूपकाणि उपरूपकाणि श्रव्यकाव्येषु गद्यकाव्यानि पद्यकाव्यानि चम्पूकाव्यानि एतानि सर्वाणि अभिव्याप्य साहित्यशास्त्रं यत्र काव्यस्य स्वरूपं लक्षणं भिन्नप्रभेदाः गुणदोषविचारः इत्यादि विचार्यते एतेषां सर्वेषां विषये गतवर्गे वयं ज्ञातवन्तः इदानीं शास्त्रप्रपञ्चं प्रविशामः यथा पूर्वं दृष्टम् अत्र पञ्चविभागाः सन्ति वेदाः वेदाङ्गानि दर्शनानि इतिहासपुराणानि अन्यशास्त्राणि इति तत्र पुनः स्थूलरूपेण प्रत्येकम् अध्ययनार्थं वर्गः प्रत्येकं वर्गः एव अपेक्ष्यते किन्तु स्थूलरूपेण वा एतेषां परिचयः अस्माभिः प्राप्तव्यः अयमेव अस्माकं ज्ञाननिधिः संस्कृतं ज्ञाननिधिः इति सर्वदा वयं वदामः संस्कृत इस् अ ट्रेजर हौस् आफ् आल् आर् एन्शियण्ट् नालेज् किं तद् ज्ञानं तत्र किं किम् अस्ति इति अपि किञ्चिद्वा ज्ञातुम् अयं प्रयत्नः तत्रादौ वेदः इत्यस्ति वेदाः इति अस्माकं सत्तायाः एव मूलं वेदोऽखिलो धर्ममूलम् इत्येव अस्माकं हृदयम् अस्ति अस्माकं संस्कृतौ सर्वस्यापि आधारभूताः सन्ति वेदाः विदज्ञाने इति धातोः घञ् इति प्रत्ययस्य योजनेन वेदशब्दः निष्पाद्यते वेदः इत्युक्ते ज्ञानम् इत्येव अत्यन्तं स्थूलः अर्थः तत्र अस्माकं परम्परानुगुणं सम्प्रदायानुगुणम् अनादिः अपौरुषेयः ऋषिभिः दृष्टः वेदः सो वेदाः अनादयः देर् इस् नो बिगिनिङ्ग् दे आर् इटर्नल् अपौरुषेयः पुरुषप्रयत्नेन विरचिताः न सो ऋषिभिः दृष्टः सो देर् आर् ऋषीस् हु आर् असोसियेटेड् वित् द वेद मन्त्रास् बट् वी डोण्ट् से दट् दे आर् द कम्पोजर्स् आर् द क्रियेटर्स् आफ् द मन्त्रास् सो ऋषीणां तपसा साक्षात्कृताः सो पूर्वमपि विद्यमानं ज्ञानं ऋषिभिः दृष्टम् अतः मन्त्रद्रष्टारः ऋषयः इत्येव साम्प्रदायिकं प्रतीतिः सो देर् आर् वेस्टर्न् व्यू पायिण्ट्स् विच् डिफर् सिग्निफिकेण्ट्लि ओवर् दिस् आफ् कोर्स् बट् in our tradition this is how we hold the vedas right tatra swarupatah vedah tridha bhavati etadapi purvam jnatam tatra padabaddhah athava padya rupah ruchah rik ityukte padya rupah mantrah gadya rupani yajumshi yajuh yajushi yajumshi ityuchyate so yajurvedasya प्रामुख्येन मन्त्राः गद्यरूपाः इति साममन्त्राः गीतिरूपाणि इति उच्यन्ते So गीतेः प्रकारः अस्ति. So there is a different way in which they are sung, literally poetry, prose and song. Very very rough translation. एवं त्रिधा वेदमन्त्राः भवन्ति. अत एव वेदस्य त्रयी इति नाम विद्यते. So the Trayi refers to the Swarupa of the Vedas. It is not the number of Vedas. It refers to the three different types of mantras. So the based on the construct, there are three types of mantras found in the Vedas. Okay. Tatra akhandaha asit vedaha adau iti tasya vibhagaha भगवता बादरायणेन कृतः. अत एव सः वेदव्यासः इति प्रसिद्धः. व्यास इस् टु सेपरेट्, टु स्प्लिट्. सो इट् इस् बिलीव्ड् दट् द वेदास् वेर् वन् होल् एण्ड् फार् द पर्पस् आफ् स्टडीङ्ग् इट्, फार् द पर्पस् आफ् प्रिसर्वेशन् दे वेर् मेड् इन् टु फोर् नो स्प्लिट् इन् टु फोर् टैप्स् एण्ड् देर् फोर् ही इस् काल्ड् एस् वेदव्यास. अत्रापि बहुधा अस्ति व्यासः एकः न, किन्तु युगे युगे कल्पे कल्पे भिन्नाः व्यासाः भवन्ति इत्यादि बहु अस्ति. किन्तु वेदानां विभागः व्यासमहर्षिणा कृतः इत्युच्यते. वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः करोति बहुलं भूयः वेदव्यासस्वरूपधृक्. वस्तुतः विभुः भगवान् एव वेदव्यासस्वरूपधृक्, वेदव्यासस्य स्वरूपेण आगत्य व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे इत्येव श्लोकः अस्ति प्रसिद्धः. अतः भगवान् स्वयं वेदव्यासस्य रूपं धृत्वा वेदम् एकं वेदं चतुर्भेदं कृत्वा शाखाशतैः, अनन्तरं तत्र पुनः बह्वीः शाखाः निर्माय तेषां प्रसारणं संरक्षणं च करोति इत्यस्ति. तत्र वयं पश्यामः चेत् व्यासस्य चत्वारः शिष्याः प्रसिद्धाः सन्ति. तत्तेभ्यः सः एकैकं वेदं पाठितवान् इति उच्यते. तत्र पैलः इति ऋषिः आसीत् यः ऋग्वेदं पाठितः व्यासाचार्येण. वैशम्पायनः यजुर्वेदं पाठितः. जैमिनिः सामवेदं पाठितः. सुमन्तुः इति मुनिः अथर्ववेदं पाठितः. सो देर् वर् फोर् प्रिन्सिपल् डिसैपल्स् आफ् व्यास टु हूम् हि डेलिगेटेड् ईच् आफ् दीस् वेदस् फार् प्रिसर्विङ्ग् एण्ड् फार् प्रोटेक्टिङ्ग् देम् एण्ड् पासिङ्ग् देम् आन् थ्रू देर् डिसेण्डेण्ट्स् एण्ड् जनरेशन्स्. तत्र बहु एतदस्ति व्याकरणमहाभाष्यं, पतञ्जलिना निर्मितं महाभाष्यम्. So a minimum of 2000 years ago, Patanjali was supposed to be in 150 BC. Tatra Patanjali hi vadati, kasvinchit prasange vadati, ekashatam adharyushakhah sahasravartma samavedah ekavimshatidha bahvrucham namadha atharvano vedah. Kaha arthah ekaikasyapi vedasya bhinnah shakhah santi. So shakhas are called as recensions, normal. So different families of rishis, they took upon themselves to preserve different streams of Vedas. So tatra mahabhashye patanjalina kathyate bahvrucham nama rigvedah ekavimshatidha. So 21 shakhas of rigveda. एकशतम् अध्वर्युशाखाः, अध्वर्यु इति यजुर्वेदस्य व्यवहारः, एकशतम् 101 शाखास् आफ् यजुर्वेद, सहस्रवर्त्मा सामवेदः 1000 शाखास् आफ् सामवेद, नवधा अथर्वणो वेदः 9 शाखास् आफ् अथर्ववेद. एतावद् अस्ति इति महाभाष्ये पतञ्जलिः कथयति. किन्तु इदानीं कति वेदशाखाः प्रसिद्धाः सन्ति इति पश्यामः चेत् ऋग्वेदस्य शाखाद्वयं, यजुर्वेदस्य षट् शाखाः यजुर्वेदे शुक्लयजुर्वेदः कृष्णयजुर्वेदः इति पुनः द्वेधा विभागः. कृष्णयजुर्वेदस्य शाखाद्वयं शुक्लयजुर्वेदस्य शाखाचतुष्टयम् इति आहत्य षट् शाखाः यजुर्वेदस्य. सामवेदस्य तिस्रः शाखाः, अथर्ववेदस्य शाखाद्वयम्. सो 6 + 3 = 9, 11 and 13 औट् आफ् अ 1131 shakhas which were enumerated by Patanjali 2000 years ago. What we have now is this. Ahatya Trayodasha Shakhaha. There are a few more very rare shakhas with very few practitioners. They say they are being discovered. But in majority, this is what has survived this long. Tatra pratyekam vedasya, pratyekam shakhayaha. Each of these, for example, you have Yajurveda. In Yajurveda, the Krishna Yajurveda, there is the shakha called the Taittiriya shakha. One of the most common shakhas, in especially in South India, is the Taittiriya shakha. So, evam याः शाखाः सन्ति तासु सर्वासु चत्वारः भागाः भवन्ति. ईच् शाखा आफ् द वेद हेस् दट् इस् बेसिकली ईच् वेद इस् मेड् अप् आफ् फोर् पार्ट्स्. चत्वारः भागाः भवन्ति, संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषद् इति चत्वारः भागाः. सो संहिता भागः यत्र मन्त्राः सन्ति. द मेजर् मन्त्रास् of the Veda are in the Samhita. So Taittiriya Shakha means Taittiriya Samhita. Taittiriya Samhitayam mantraah santi. Brahmanam ityukte tesham mantranam viniyogah yajnanushthane katham bhavati. Mantranam vyakhya. So a brahmana is like a commentary to the mantras. What do they mean? And more importantly, where are the Veda mantras used? In what yajnas or in what context we utilize them? So, tesham jnanam brahmanena bhavati. Brahmana bhagaihi bhavati. So, samhita bhage mantraha bhavanti. Brahmana bhage tesham vyakhyanam viniyoga prakaraha ityadi uchyate. आरण्यकम् इति भागः भवति. तत्र नित्यनैमित्तिककर्माणि, कर्मानुष्ठानं किं किं कर्तव्यं, नित्यकर्म, नैमित्तिककर्म इत्यादि, एवं काश्चन उपासनाः, एतत् सर्वमपि आरण्यकभागे भवति. उपनिषद् भागः अन्तिमः. तत्र तु आत्मविचारः, दार्शनिकविचाराः प्राधान्येन दृश्यन्ते उपनिषत्सु. सामान्यतः वयं वदामः चेत् आदौ भागत्रयं कर्मकाण्डम्, उपनिषत्तु ज्ञानकाण्डम् इति उच्यते. सो द फस्ट् त्री आर् मोर् रिचुवलिस्टिक् वेर् आस् द उपनिषत् इस् मोर् टुवर्ड्स् फिलोसाफिकल्. कदाचित् तु संहिता, ब्राह्मणं च, कर्मकाण्डम्, आरण्यकम्, उपनिषत् च, ज्ञानकाण्डम् इति उच्यते. कदाचित् तु कर्मकाण्डम्, उपासनाकाण्डम्, ज्ञानकाण्डम् इति भेदः भवति. बट् जनरली द उपनिषत्स् आर् एक्सेप्टेड् टु बी द ज्ञानकाण्ड. तस्यैव वेदान्तः इति नाम अपि भवति. एक्स्क्यूस् मी, जस्ट् वन् मोमेण्ट् प्लीस्. Okay, sorry. So the Upanishadam eva Vedantaha iti nama. Vedasya antaha. So antaha antima bhagaha ityapi uchyate. Athava antaha atyunnata bhagaha, the edge or the tip, the pinnacle of the Vedas ityapi arthaha asti. Veda shikha, shikha eva atyantam uttamaha bhagaha ityapi uchyate. Taha Upanishadaha. So each of the Vedas will have these four parts. Samhita, Brahmanam, Aranyakam, Upanishad. Yatha Taittiriya Shakha asti che, Taittiriya Samhita, Taittiriya Brahmanam, Taittiriya Aranyakam, Taittiriya Upanishad. Evam Bhinnanam Shakhanam Bhavati. So these four parts, each Veda will have these four parts. So the Samhita Bhaga has the main mantras. The Brahmanas have the Viniyoga of those mantras. Aranyaka have the Nitya Naimittika Karmas and some forms of Upasana or worship. Whereas the Upanishads have the philosophical thoughts. Tatra Upanishadsu Dasha Upanishadaha Atyantam Mukhyaha Itaraha to Asankhyaha Santi Kintu Dasho Upanishadaha Atyantam Prasiddhaha Isha, Kena, Katha, Prashna, Mundaka, Mandukya, Aitareya, Taittiriya, Chandogya, Brihadaranyakaha. Iti Dasha Upanishadaha Santi. So Shankara Bhashyam Dashanam Api Asti. So Tesham Upanishadam Bhashyadhyayanam Eva Vedanta Adhyayane Pramukham Bhagam Vahati. Okay, so these Upanishads belong to different Vedas, different Shakhas. So these 10 are considered the main or the principal Upanishads. There are hundreds of other kinds of other Upanishads also. So Ayam Ved Idam Vedasya Swarupam. So Vedaha Adav Akhandaha Asit Vedasya Chatvaraha Bhagaha Krataha Rik Rigvedaha Yajurvedaha Samavedaha Atharvanavedaha. Tatra Pratyekam Vede Bhavyaha Shakaha Bhavanti. Tatra Pratishakam Ete Bhagaha Bhavanti. Samhita Brahmanam Aranyakam Upanishat. This is the structure of the Vedas. Tatra Vedanam Vedamantranam Arthajnanartham Vedabhashyam Rachitamasti. So the Vedabhashyas, just like we saw that in the first class, that there are different kinds of literature. So Bhashya is the one which explains in detail. Tatra Vedabhashyam Vedabhashyani Bahuni Santi. So specifically for different Vedas or even specific to different Shakhas. So Skandaswami iti atyantam prasiddhaha Rigveda Bhashyam likhitavan. Venkata Madhavaha Rigartha Deepika iti Shukla Yajurvedasya Uvatacharyena Kritam Bhashyamasti. Bhatta Bhaskarasya Taittiriya Bhashyamasti. Veda Deepaha iti Ayamapi Shukla Yajurvedasya Mahidharaha iti. Kintu Atyantam Prasiddhaha Veda Bhashyakarta asti Sayanacharyaha Chaturveda Bhashyam. Chaturnam Api Vedanam Bhashyam Virachitamasti Sayanacharyena. So Sayana was during the Vijayanagara kingdom. So Sayana Madhava, they were brothers. So Sayanacharyaha Madhavacharyaha iti Vijayanagara samsthane Rajashreye astam tatra Sayanacharyena Chaturveda Bhashyam Virachitamasti. So the name of Sayana is extremely famous because it is one of the very few authoritative Bhashyas on a huge part of the Vedas. Anyadekam Yatavyamasti Vedanam Adhyayanam Yada Kriyate Tatra Veda Artha Jnanat Purvamapi Vedasya Samrakshanam. So to protect the Vedas in their correct form. You have the different Shakhas, there are variant Swaras, variant Mantras and all. Tadartham eva Vedadhyayanam Kriyate Tatra Vedadhyayane Bhagadvayam Bhavati Prakriti Pathaha Vikriti Pathaha Iti Uchyate. So when they are studying the Vedas, they study it in two different kinds. That is, it is steps. It is not like two separate ones. It is like one after the other. It's progressive adhyayanam. Tatra prakriti paathaha. Prakritihi ityukte mule yadasti tadeva. Tatra staratrayam bhavati. So the first level of studying the Vedas is called samhita paathaha. Samhita ityukte kim mantra bhagaha purvameva jnatavantaha taittiriya samhita taittiriya shakhayam yavantaha mantraha te taittiriya samhitayam bhavanti tesham adhyayanam. So learning the mantras of the samhita along with the swaras, of course, that need not be told for the Vedas. So, swaswaram samhita bhagasya adhyayanam samhita pathaha ityuchyate. Udaharanartham kashchin mantra asti rigvedasya mantra. Oshadhayas samvadante somena saharagnya iti. It is one sentence of the mantra. It is not the complete mantra also. It is just one line. So, samhita patha means whatever is there, you study the original mantras in full. That is, the line is one complete entity. You don't study it word by word. Vedeshu adhyayanam sarvada tasya vakyasya yataha yatra yatra sandhihi bhavati tatra oshadhayas samvadante somena saharagnya iti samhita pathaha ityuchyate. Samhita pathanantaram padapathaha iti bhavati ekaikasya api padasya. So what they do then is they learn to split each word by word by word. So there is oshadhayaha, sam, vadante, somena, saha, rajnya, shat padani santi. Padapathe, padashaha, adhyayanam kriyate. And you have to remember that the swaras may be different. Okay, where there is samhita patha, when they are together, the swara may be different. Whereas the individual pada, the swara may be different. So they are splitting each pada, identifying its original form as a pada and learning it. So first you learn the entire sentence with its swaras, then the pada. Each word you split and learn it. Tataha kramapathaha iti. Bhavati. Yatra, it is the krama. Krama means the order. So, you know the line, you know the words, but there is a possibility that you may forget some words in between. Say you drop the sam or you drop the saha somewhere. It happens a lot of times when we learn shloka. Sometimes you inadvertently drop words. So to avoid that, there is the kramapatha, which is the order. Here you are learning in couplets, that is two words together. So oshadhayaha sam, sam vadante, vadante somena, somena saha, saha rajnya, rajnyeti rajnya, the line ends there. And then for the next line, again, take it two by two by two, so that the link is never broken. So one word always comes with the next word. The next word you are linking to the next word, that one and so on. So samhita, pada and krama. Okay. So this itself sounds exhausting, but this is just the basic of the prakriti patha. This is like very, very minimal that the Veda Adhyayins do. They learn the whole samhita. They learn the individual words and they make sure that the order is not lost by learning it in couples. That is each word and the next word. Okay, these three together is called the Prakriti Patha. Okay, a basic Vedadhyayana means these. So, Samhita Patha is, these days it does happen, but in those days at least Kramanta. Yadi kramanta adhyayanam iti padam shrutam asti. Kramantam ityukte samhita pathaha, pada pathaha, krama pathaha, trayanam api adhyayanam krutam ityarthaha. Anena saha vikriti pathaha ityapi asti. Vikriti pathaha ashta vidhaha. There are eight kinds of vikriti patha. Okay. So jata, mala, shikha, rekha, dhvajo, dando, ratho, ghanaha. Ityuchyate. Jata, mala, shikha, rekha, dhvajaha, dandaha, rathaha, ghanaha. So there are eight kinds of vikriti patha. Each of them is like permutations and combinations of the words of the Vedas in increasing order of complexity. Okay. So it is this patha which has ensured that we at least have what we have today. So I'll give you just one example. Sarvesham api vikriti pathanam etat na kriyate. If you just do a search on the web for vikriti patha, there is a demonstration of the vikriti patha itself. Okay. सो तत्र जटापाठः इत्युक्ते किम् इति चेत् सो वै आर् दीस् काल्ड् विकृतीस् फार् फस्ट् थिङ्ग् इस् बिकास् इन् प्रकृतिपाठ वी आर् नाट् चेञ्जिङ्ग् द आर्डर् आफ् द पदस् ओके प्रकृतिः तत्र यः क्रमः अस्ति स एव क्रमः I mean the order of words in the original is not changed. Okay, so you have in padapatha you are splitting it, but the order is still the same. In kramapatha you are taking two together, but still the order is the same. Okay, that is the prakriti. Kintu vikriti pathe the order is you go front, you come back, you go front, again you go front, come back, go front. उदाहरणार्थं जटापाठं पश्यामः चेत् सो ओषधयः सम् सम् ओषधयः यु कम् बेक् इट् इस् लैक् वन् टू टू वन् फस्ट् वर्ड् सेकेण्ड् वर्ड् सेकेण्ड् वर्ड् फस्ट् वर्ड् अगेन् फस्ट् वर्ड् सेकेण्ड् वर्ड् सो वन् टू टू वन् वन् टू देन् यु गो टु द नेक्स्ट् वन् सो दिस् इस् टू अण्ड् त्री सो टू त्री त्री टू टू त्री लैक् दिस् 3-4, 4-3, 3-4, 4-5, 5-4, 4-5 till you read the end of the sentence. And like this you do for the entire Samhita. That is Jatapatha. Okay, so two words. So you go front, come back, go front, and then drop one and pick one. Okay, so that is the order of Jata, which is just two together. Again, tatra agre gachanti chet. तत्र पदत्रयस्य योजनं क्रियते सो यु गो वन् टु त्री त्री टु वन् वन् टु त्री अण्ड् सो आन् एवमेव इट् इस् इन् अ कम्प्लीट् इन्क्रीसिङ्ग् आर्डर् आफ् काम्प्लेक्सिटि ओके सो वेन् वी काल् सम्बडि अ घनपाठी घनपाठी इति अत्यन्तं प्रसिद्धः इट् मीन्स् ही इस् अ पर्सन् हू हेज़् डन् द एण्टायर् थिङ्ग् So the first three plus these eight, he has studied the Veda in these 11 kinds of, you know, the practice, so that it is impossible for him to forget. So evam adhyayanam kritva vedanam samrakshanam kritavantaha santi asmakam veda panditaha. So Veda adhyayanam is nothing trivial. I mean, there are so many cases when we don't even know what they are doing. So to put your entire life into the study of Vedas, okay? So can imagine how much of complexity, how much of avadhana it requires, concentration, and how much of brain capacity. So adhya bahudha samshodhanam kriyate, katham vedadhyayanena tatra brain capacity ityadi vardhate iti. Evam sahasrebhyah varshebhyah केवलं धर्मः इति धिया कृतवन्तः कुर्वाणाः सन्ति अस्माकं वेदविद्वांसः रैट् सो इट्स् अ ह्यूज् टास्क् इट् इस् बिकास् आफ् देम् दट् वी अट् लीस्ट् हेव् दोस् 13 शाखास् आफ् वेदास् रिमेनिङ्ग् अदर्वैस् वी वुड् हेव् लास्ट् द एण्टैर् यु नो द बेसिस् आफ् आर् एण्टैर् सिविलैजेशन् सो तत्र तद् ज्ञानार्थमेव उक्तं बिकास् when we are studying just the Sanskrita, we don't even, many times we don't even touch the other part. Vedadhyayanam na kriyate ityatah tatra kim bhavati ityapi vayam na janimaha. Kintu tasya vishaye kinchi jnanartham uktam. Etavata prashnaha santi chet prichantu. So there is one about vyakarana which I'll take at the end of the class. And there is one more question. Adhyatana vishayaha vyakaranam nama iti. व्याकरणभागाः अस्माभिः अधीताः वाट् एवर् इस् देर् व्याकरण स्पेसिफिक् फार् कोविद वि हेव् स्टडीड् सो वि आर् जस्ट् डूयिङ्ग् द लास्ट् फ्यू पोर्शन्स् एण्ड् दिस् वन् दो डिरेक्ट्लि नाट् देर् आर् सम् पोर्शन्स् इन् द कोविद टेक्स्ट् अबौट् सम् आफ् द शास्त्र सम् आफ् द शास्त्रज्ञास् एट्सेट्रा बट् नाट् दिस् इन् दिस् स्वरूप बट् सर्वैः एतद् ज्ञानं प्राप्तव्यम् इत्यतः मया उक्तम् श्रीमती भगिनी प्रश्नः अस्ति वा
न अहं जटापाठ वक्तुम् इच्छामि अनुमतिः अस्ति चेत् उदाहरणार्थम्
ओ यो जटापाठं वक्तुम् इच्छति कृपया
ओषधयस्तगुं समोषधयोषधयस्तम् संवदन्ते वदन्ते सगुं संवदन्ते वदन्ते सोमेन सोमेन वदन्ते वदन्ते सोमेन सोमेन सह सह सोमेन सोमेन सह सह राज्ञा राज्ञा सह सह राज्ञा आ राज्ञेति राज्ञा आ यस्मै करोति करोति यस्मै यस्मै करोति करोति ब्राह्मणो ब्राह्मणः करोति करोति ब्राह्मणः ब्राह्मणस्तं ब्राह्मणो ब्राह्मणस्तम् तगुं राजन् राजन् तं तगुं राजन् राजन् पारयामसि पारयामसि राजन् राजन् पारयामसि पारयामसीति पारयामसि धन्यवादः
धन्यवादः सो इफ् यु नोटिस् दट् the swaras and also the sandhis they change in this way say when it is oshadhayah sam the swara may be different and when you come back the swara will be different because the swaras in the vedas depend on what comes before what comes after even the sandhi may vary the pronunciation may vary so it is not just that I mean putting here it looks like okay it is just one and two but you also have to pay attention to the swara the changing in swara so that you are internalizing the entire structure so the words the order of the words the swara of individual words how the swaras change when the order changes and so on it's an amazing thing if you understand a basic of this and listen to a one of the vikriti pathas you'll get an idea of how much of you know effort it takes to master each of them okay can you please give examples for ganapatha see I have not done veda adhyayana it is not I don't know but if you look at the this ones if there are some websites which give a few portions but more than that if you just do as I said a vikriti patha search there are some documented chantings of the different pathas okay so are there saswara pathas available in print these days there are as in there are some modern this ones but we should remember that when I say these days it is like 50 years compared to the like 5000 years of oral tradition that is our strength so all these years it has come only through the oral tradition and even today that guru shishya parampara is the authority in vedas so reading from a book there may be typos and again I mean it is there are a lot of issues with that so whether there of course for the purposes of documentation at least so that we don't lose what we have documentation is definitely required but the authority for any of this is definitely the live tradition and that is why there was one more question on is there no way to revive the lost shakhas unfortunately not because it was purely shruti so it is the oral tradition from the guru to shishya somewhere we lost it and it is a huge loss okay okay so Bhagini says YouTube has beautiful pathas where they explain all the vikriti pathas please share the links Bhagini so that I'll just put it up for whoever is interested you can go through it I'll just at the end of the slides I'll put up a few links if you're interested you can go through it and you know listen to it at least we know what is there in our tradition and we are able to appreciate it rather than remaining ignorant okay so evam vedanam vishaye kinchit jnatam अग्रे वेदांगानि. सो फॉर द प्रिजर्वेशन ऑफ दीज वेदस देर आर सिक्स अंगस वेदस्य अंगानि. सो यथा पश्यामः वेदस्य भिन्न भिन्न अंशानाम् अध्ययनार्थम् एतानि वेदांगानि महर्षिभिः प्रणीतानि. शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं तथा कल्पश्चेति षडंगानि वेदस्याहुर्मनीषिणः इति षट् वेदांगानि सन्ति. तत्र प्रथमं अंगमस्ति शिक्षा इति. शिक्षा इति उच्चारणशास्त्रम्. सो इट इज द earliest version of what is called as phonetics today. So phonetics इत्युक्ते वर्णाः तेषां उच्चारणम्. So of course, I mean, I don't think we even need to tell on why this is important to the Vedas. Vedas is uccharana. There is nothing to the Vedas. I mean, that is the most primary aspect of Vedas is the uccharana. Atah uccharanam, pratyekam varanasya uccharanam katham karaniyam. If you look at it, there is also, I don't know if there is a video somewhere where in addition to the Veda Pathas, there is a tradition where they give the details of each letter of the, of the mantra, giving the various aspects of each. For example, if there is O, okay, so O is a Dirghaswara and it will be Udatta, Anudatta, Swarita or something. And similarly, if you come to a Vyanjana, so there will be different Abhyantara and Bahya Prayatnas. So there are different terms, technical terms used in phonetics. So each of them is recited for each letter. Okay. So Tadrishyaha Api Sampradayaha Asit. So there is a tradition where they take it letter by letter, give the exact properties of each letter and, you know, state it. It's all oral. I mean, as they are going on, they think of that mantra, they, what is the next letter and what are all the properties of that letter. Say for example, like say Sha, Sha is a Mahaprana. It is a Vivara, Shvasa, Aghosha are called the prayatnas there, bahya prayatnas, and it is a say vivrutatara in abhyantara prayatna, and so on. So there are different, many different kinds of properties for each letter. So there are also traditions which orally document for each letter what is the properties associated with it. So all that is based on the shiksha shastram. Tatra bahu prasiddham asti Taittiriya Upanishadi Shikshavalli ityeva asti. Tatra shiksha iti mantraha swaraha varanaha ityadi asti. So even though it is not literally a shiksha shastra, it doesn't explain what it is, but the basic goes back to the Vedas themselves. अनन्तरं प्रातिशाख्यानि इति सन्ति. प्रति शाखं शाखां शाखां प्रति. फॉर ईच शाखा देर आर डिफरेंट रूल्स फॉर उच्चारणम्. ऋग्वेदे यथा उच्चारणं श्रियते अथवा ऋग्वेदस्य एकस्यां शाखायां यथा उच्चारणं क्रियते तथैव अन्यस्यां शाखायां भवति इति नास्ति. तत्तच्छाखा विशिष्टाः नियमाः भवन्ति, सामान्य नियमाः अपि भवन्ति. अतः प्रातिशाख्यानि आसन् प्रतिशाखायाः प्रातिशाख्यं भवति यत्र तादृशाः नियमाः भवन्ति. सो तत्र शिक्षा अंशाः अपि बहुधा सन्ति. सो प्रातिशाख्यास् आर् वन् आफ् द वेरी एन्शियन् ग्रन्थास्. दे कण्टेन् पोर्शन्स् आफ् शिक्षा, पोर्शन्स् आफ् व्याकरण एण्ड् पोर्शन्स् आफ् छन्दस्. बट् मेनी आफ् द शिक्षा विचारास् आर् डिस्कस्ड् इन् द प्रातिशाख्यास्. शिक्षा ग्रन्थाः इत्येव पश्यामः चेत् तत्र बहु प्रसिद्धा अस्ति पाणिनीयशिक्षा इति. वस्तुतः पाणिनिना विरचिता शिक्षा इयमेव वा न वा इत्यपि सन्देहः अस्ति. And there are two versions of Paniniya Shiksha also available. One is a prose version, the other is a Padya version. Kintu Paniniya Shiksha Upalabhyamanasu Shikshasu Atyantam Prasiddha Asti. एवमेव अन्याः बहवः शिक्षाग्रन्थाः सन्ति, याज्ञवल्क्यशिक्षा, नारदशिक्षा इत्यादि रीत्या. ओके, सो दट् इस् अ वेरि ब्रीफ् इन्ट्रोडक्षन् टु शिक्षाशास्त्र. अग्रे व्याकरणम्. सो वस्तुतः व्याकरणम् इत्युक्ते वयं सर्वे अष्टाध्यायी इत्येव तावद्वा परिचयः बहूनां भवति, किन्तु पाणिनीयम् एव व्याकरणम् इति न. वस्तुतः पाणिनेः पूर्वमपि बहवः वैयाकरणाः आसन्. सामान्यतः ऐन्द्रं, चान्द्रं, काशकृत्स्नं, कौमारं, शाकटायनं, सारस्वतं, चापिशलं, शाकलं, पाणिनीयकं, नव व्याकरणानि सन्ति. वस्तुतः रामायणे हनुमतः अपि नवव्याकरणकोविदः इत्येव व्यवहारः अस्ति. सः सर्वेषामपि व्याकरणशास्त्राणां पाण्डित्यं प्राप्तवान् आसीत् इति. पाणिनिं विहायापि अन्ये बहवः वैयाकरणाः आसन्. अष्टाध्याय्यां पाणिनिः अपि बहूनां वैयाकरणानां नामानि वदति. सो देर् वर् मेनी डिफ्रेण्ट् स्ट्रीम्स् आफ् व्याकरण आल्सो, किन्तु पाणिनीयव्याकरणस्यैव वेदाङ्गत्वम् इति नागेशभट्टः प्रतिपादयति. सो पाणिनीयं व्याकरण ईस् वेल्यूड् दट् मच् because it covers both, you know, the laukika vyakarana niyamaha evam vaidika vyakarana niyamaha sarvam api paniniya vyakaranena vyakriyate ityataha paniniya vyakaranam is one of the most comprehensive tasya eva vedangatvam ityapi sarvaihi angikriyate tatra paniniya vyakarane pramukhaha trayaha munayaha santi. सो पाणिनिः, कात्यायनः, पतञ्जलिः इति मुनित्रयम् इत्येव उच्यते. तत्र सूत्रकारः पाणिनिः. सो तेन व्याकरणसूत्राणि रचितानि. ग्रन्थस्य नाम अस्ति अष्टाध्यायी इति. अष्ट अध्यायाः सन्ति इत्यतः अष्टाध्यायी इत्येव ग्रन्थस्य नाम. वररुचिः अथवा कात्यायनः वार्तिककारः इत्युच्यते. वार्तिकानि सूत्राणां परिशेषरूपाणि. सो दे आर् लैक् अडिशन्स् और् शार्ट् कमेण्ट्स् आन् द सूत्रस्. वस्तुतः बहवः वार्तिककाराः सन्ति इति उच्यते. वार्तिकानां पृथक् ग्रन्थः नास्ति. यथा सूत्राणाम् अष्टाध्यायी इति एकः ग्रन्थः अस्ति, एवं वार्तिकानां पृथक् ग्रन्थः नास्ति. महाभाष्ये वार्तिकानां व्याख्यानं क्रियते. तत्र भाष्यकारः अस्ति पतञ्जलिः. पतञ्जलेः रचना अस्ति महाभाष्यम्. मया पूर्वमपि उक्तं, सूत्रं वार्तिकं भाष्यम् इति सर्वेषु शास्त्रेषु भवति. न्यायसूत्रं न्यायवार्तिकं न्यायभाष्यम्, एवं ब्रह्मसूत्रं वार्तिकानि भाष्यं ब्रह्मसूत्रभाष्यम् इत्येवं सर्वेषु शास्त्रेषु भवन्ति. किन्तु महाभाष्यम् इति तु व्याकरणभाष्यस्यैव नाम. वस्तुतः गात्रेण एवं विचारगाम्भीर्येण च महान् ग्रन्थः सः. एतेषां त्रयाणां मुनीनां ग्रन्थानाम् आधारेण व्याकरणशास्त्रं महत् प्रवृद्धम् अस्ति. सो व्याकरण इस् अमङ्ग् द वेदाङ्गस्. व्याकरण इस् प्रोबेबलि द वेदाङ्ग विच् हेस् ग्रोन् लैक् इनार्मस्लि. So thousands of texts composed continuously throughout the years. Okay. So tatra tesham parichayah, laghu parichayah, kovida pustake asti. Tatra to have an overview, tatra para, you can use this link. Yatra pramukhanam vyakarana granthanam tesham kartarah ke iti tesham api namani likhyante. So there are not much details, but you will know some of the major granthas of the vyakarana parampara. So yatha vayam kadachit shrutam syat kaumudi, siddhanta kaumudi ityasti, laghu siddhanta kaumudi ityasti, kashika. So they are different streams. It is a huge shastra by itself, and it is also one of the shastras which has grown beyond just being a Vedanga to a darshana, that is a complete philosophy by itself. Okay? Even though that aspect is minor, so Vyakaranam tu bahu vistritam shastram asti, so which is studied even independently. I mean, which requires like say several lifetimes to study even independently. There are a couple of questions here. Would you kindly show us a part of Mahabhashya on a simple sutra? Well, I mean, even Mahabhashya for even a simple sutra would go like several pages. It is not like one this thing. And I don't know what would be this one. Mahabhashya is basically a conversation. He'll ask questions and there will be answers. Say again, if you go to this ashtadhyayi.com, so you will see the bhashya for each sutra. There will be the bhashya. Say for example, so if you go to the this is one of the most useful sites for grammar. So it has the sutras. So what you see here is the sutra. So if you click on the sutras, you will get various details of the sutra. So where you can see that there are different texts. Okay, so there is Kashika Vritti, there is Siddhanta Kaumudi, there is the text and then the sub commentaries of those texts. And you can also see this is the Mahabhashya. So you can see like it goes on just for the first sutra. And this is just the Bhashya. So Bhashyasya punaha vyakhyanani bhavanti. Okay. It's a very wide ranging discussion in the Mahabhashya. Do the books of other Vyakaranas exist today other than Panini? Santi. Anya Vyakaranasya Granthaha Santi. Yatha Katantra Vyakaranamasti. Anyani Vyakaranani Kanishana Labhyante. Not all, but some of the texts of other Vyakaranas are also available. And there are also other streams after Panini. There were three Paninian systems, most of which are not available. But post-Paninian also, there are systems which have developed and which are available. So, Tritiyam Vedangam Asti Chandaha Iti. So, Chanda Shastram, Chanda Sutrani Iti, Pingalacharyena Virachitani Santi. So, Punaha Pratishakheshu Api. Chando vicharaha bahudha bhavanti. So the chandas, for those who do not know, is the meter, the arrangement of letters or syllables which form specific gati in the padyas, mainly padyas. So yatra gadyamasti tatra chando vicharaha na bhavati, padyeshu bhavati. Katyayanasya sarvanukramani iti, sopi vaidikaha eva granthaha, tatra api chando vicharaha asti. Natyashastre, Bharatasya natyashastre prayaha adhyaya trayeva, adhyaya chatushtayeva, chando vicharaha santi. Vinnanam chandasam lakshanani santi. Agnipurane keshuchit adhyayeshu chando vicharaha drishyante. Apart from these, there are texts which are specifically composed for the chandas. Tatra Shrutabodhaha iti granthaha, tasya rachayita Kalidasaha iti uchyate, kintu Mahakavihi Kalidasaha va na va iti tu na jnayate. Shrutabodhaha iti granthaha, chando vichitihi iti Jayadevasya granthaha, atyantam prasiddhaha Chandashastra Granthaha tu Vrittaratnakaraha iti Kedara Bhattena Rachyate. Tatra Chandasu api Vaidika Chandamsi Laukika Chandamsi iti Bhedaha asti. So Vaidika Chandasam Lakshanam Bhinnam, Laukika Chandasam Lakshanam Bhinnam Bhavati. Tesham Lakshanam Udaharanam Ityadi Chandashastra Diyate. So there is one very famous mathematician called Manjul Bhargav. So if you look for that name, you should find some talks. He gives very beautiful talks on how the, you know, the Indian Chanda Shastra, the logic involved, the binary system, you know, the there is zero and one. So all computer, this thing is based on a binary code. There is zero and one. So he explains very beautifully how the Chanda Shastra of Indian stream, it had developed many principles of this and so on. Okay. So tattu Chanda Shastrasya laghu parichayah chaturtham asti niruktam iti yaskacharyena pranitam niruktam yadyapi niruktakaraha api bahavaha santi iti uchyate asmabhihi adhuna upalabhyamanam niruktam tu yaskasya eva yaskaha paninerapi purvakalikaha. So he is bhasha shastrasya prachina tamaha granthaha niruktam. It is the forerunner of all linguistic texts which are available today. So tatra vyakarana amshaha api santi tadbhinnaha api santi, but definitely a predecessor to the vyakarana shastra. And the best part is Nirukta itself is not an independent text. There was an earlier text called Nighantu. Nighantu iti tatah purvam api asit tasya vyakhya rupam niruktam ityuchyate. Nighantu granthaha svatantriyana na upalabhyate. Idanim tu vyakhyanam eva asti. Kintu tatah purvam api kiyat chintana paddhate hai. Utkrishtata asir iti vayam yatum shaknumaha. Yaska himself was at least 8th century BC. Before it was the Nighantu. So since then we have been doing a very detailed analysis of words, their meanings and so on. Okay, so linguistics in is one of the oldest streams of Shastra in India. So tatra mukhyataha vaidika shabdanam arthajnanam niruktasya prayojanam. Tatra saha nishpattim api darshayati. Katham dhatubhyaha tesham padanam nishpattihi bhavati. Kaha arthaha kasmin prasange kaha arthaha ityadi yaskacharyena uchyate. Anye api bahavaha vicharaha yatha kati vidhani padani tatra chatur vidhani padani iti yaskacharyaha vadati. Namakhyato upasargani pataha iti. अन्यान्यपि बहूनि यत् ये विचाराः अस्माभिः इदानीं व्याकरणांगतया अधीयन्ते तेषां मूलरूपं तु निरुक्ते एव दृश्यते. ओके, सो तत्तु तदपि वेदांगं तत्र अर्थज्ञानार्थं. यू कैन सी द डिफरेंट वेदांगस्. शिक्षा शास्त्रेण उच्चारण क्रमः ज्ञायते. व्याकरणेन पदज्ञानं भवति. निरुक्तेन अर्थज्ञानं भवति. छन्दशास्त्रेण तेषां गतेः ज्ञानं भवति. अग्रे ज्योतिषं शास्त्रं प्रत्यक्षं ज्योतिषं शास्त्रम् इत्येव तेषां मतम्. सो इट् इस् द ओन्ली शास्त्र विच् इस् विजिबल् टु द ऐ. अर्थात् ज्योतिः इत्युक्ते द ल्यूमिनस् बाडीस् आफ् द स्कै. सूर्यः चन्द्रः ग्रहाः नक्षत्राणि सर्वमपि ज्योतींषि. तेषां गतिम् आधारीकृत्य कालविज्ञानम्. सो एट् द वेरी बेसिक् लेवल् ज्योतिष इस् समथिङ्ग् टु डू वित् द टैम् अण्ड् मूमेण्ट्. द मूमेण्ट् आफ् द हेवेन्ली बाडीस् दट् इस् द ज्योतींषि. ओके, सो तत्र प्रत्येकं वेदस्य अपि ज्योतिषम् आसीत्. यथा आर्चज्योतिषम् ऋग्वेदस्य, याजुषज्योतिषम् आथर्वणज्योतिषम् एतत्त्रयमपि उपलभ्यते. सामवेदस्य ज्योतिषम् अधुना नोपलभ्यते. एतेषां वैदिकज्योतिषां लगधाचार्यः आचार्यः इति उच्यते. सो लगध इस् नोन् एस् द आथर् आफ् द वेदाङ्गज्योतिष. वेदस्य अङ्गत्वेनैव प्रणीतानां ज्योतिषशास्त्राणाम्. तत्र ज्योतिषशास्त्रेण कालगणना, तदेव कदा यज्ञः वा अन्यानि कर्माणि वा कदा करणीयानि कथम् इत्यादि ज्ञानार्थं ज्योतिषशास्त्रम् उपयुज्यते. And of course, Jyotisha is one of the most important ancient Indian sciences also, the astronomy. So, Jyotisha Shastram Pashyamaha Che Tatra Siddhantaha Samhita Hora Iti Bhagatrayam Bhavati Atyantam Prasiddhaha Shastragnyaha Aryabhataha Aryabhatiyam Iti Tasya Granthaha Varahamihiraha Pancha Siddhantika Brihajjatakam Laghujatakam Bahavaha Granthaha Varahamihirena Rachitaha Bhaskaracharyaha Siddhanta Shiromanihi Iti Bahu Prasiddhaha ग्रन्थः ज्योतिषग्रन्थः गणितशास्त्रे अपि अस्ति भास्कराचार्यस्य लीलावती इति ज्योतिषे सिद्धान्तशिरोमणिः शिष्यसिद्धान्तभागस्य गणेशदैवज्ञः इति ग्रहलाघवम् एते केचन बहु प्रसिद्धाः ज्योतिषशास्त्रग्रन्थाः सन्ति अन्तिमं वेदाङ्गमस्ति कल्पः इति तत्र Kalpa Sutrani, so Kalpa iti Jyotishamasti, Tatra Sutra Rupena Santi, Tatra Chaturvidhani Sutrani Santi. So Shrauta Sutrani iti Prathamaha Bhagaha, Yeshu Yajna Vidhihi. So it is a detailed procedure for the various Yajnas is found in the Shrauta Sutras. Kesham Yajnana Macharanam Kratham Kriyate Iti Shrauta Yajnaha Ityev Uchyante Shrutau Arthat Vedeshu Uttaha Ye Yajnaha Tesham Vidhanam Katham Tesham Anushthanam Kartavyam Iti Grihya Sutrani Iti Santi Grihya Sutreshu Shodasha Samskaraha So, there are the different samskaras, right? Say Jata Karma, Upanayanam, Vivahaha Ityadi So, it starts from the Pumsavanam, Simantam and so on. So, ending with, of course, the Antya Samskara or the Antyeshti. So, Tesham Vivaranam, Katham Tesham Samskaranam, Anushthanam Kartavyam Iti. Evameva, Grihyagni Sambadha Yagavarananam. Tatra Agnihi Tredha Bhavati. Tatra Grihyagnihi Iti Agnihi Asti. Arthat, Grihasthena Kriyamanani Karmani Tesham Vivaranam Grihya Sutreshu Bhavati. It is mostly as a part of a Grihastha for the householders. What are the samskaras and what are the related Agni Karyas? Okay, so they are given detailed in the Grihya Sutras. Dharma Sutrani Santi Dharmika Niyamaha Varnashrama Vicharaha Ityadi Tatra Uchyate. So together the Grihya Sutras and the Dharma Sutras are also known as the Smartha Sutrani. The Shrauta versus Smartha. So Shrauta is the Vedic rituals whereas these are not and these are the predecessor to the Smritis. Smriti Granthaha Manusmritihi Agyamalkya Smritihi Ityadi Tesham Purva Rupameva Sutram. Sutre tu sutra rupena uchyate, etesham sutranameva vistarena kathanam smritishu bhavati, atayeva smartha sutrani iti tesham vyavaharaha. Chaturthaha asti shulba sutrani iti. So this is again very much, used in the mathematics. Eto hi atra vedi nirmana prakaraha uchyate, yajna. Anushthanartham yajna vedihi bhavati. So the vedis are of different shapes, different sizes. There are very precise measurements for the vedi. So it is not always, a yajna kunda is not always a square that we see. So there is very specific, so there are different shapes. So it could be a semicircle, it could be like say there is a different shapes also like the Garuda and so on. And very specific measurements. So one of the most popular reasons why Shulba Sutra is known is perhaps because of the, the pi and related, the mathematical measurements which are required for creating precise Vedis. They are all given in the Shulba Sutras. So, Vedi Nirmana Prakaraha. Etat Sarvam Api Kalpa Sutreshu Uchyate. Evam Asmabhihi Vedanam Vedanganam Cha लघु परिचयः प्राप्तः बहवः प्रश्नाः सन्ति यथाशक्ति उत्तरं ददामि So I think we will stop today's class here. We'll continue with this tomorrow, and hopefully we'll complete the Shastra portion tomorrow. So Mangalam Karomi, Ye Gantum Ichhanti, Te Gantum Arhanti. So there are many questions. I'll answer as many as possible. Gurureva Gatir Gurumeva Bhaje Gurunaiva Sahasmi Namo Gurave Na Guroh Paramam Shishurasmi Guror Matirasti Gurau Mama Pahi Guru. Brihat Parashara Hora Saraha Iti Kashtana Granthaha Astiva. Might be. So my specialization is not Jyotisha. It is possible. I don't know specifically about that text. Okay. Vrittaratnakaraha labhyate satyam. Vrittaratnakara is very popular, this one. It is also available in this one. So Paninyuttara Vyakaranasya Udaharanani Kripaya Dadatu. Tatra asti astutaha bhojaha asti tena Saraswati Kanthabharanam iti granthaha rachitaha. So he differs from Panini. He gives a complete different sutras, the different this ones and so on. There is also somebody called Sharvavarman. He wrote a Vyakarana called the Katantra Vyakarana and so on. There are several Vyakaranas which were post-Paninian also. Okay, so I think Venkata Krishna Mahodaya, but I don't see an audio icon. Yes, so Ghana Pathasya Kinchit Drishtantam Datum Samarthahaiti. So we'll just, whoever is interested. Venkata Krishna Mahodaya. I think you have to unmute yourself.
Namaste. Namaste, namaste.
Yes, please.
Yeah, as somebody was asking about that, actually I thought, let me just chant for a minute or so.
Yes, sorry. Sure.
But yeah, actually this is from Rudra. Mayi Medha Mayi Praja. So people may be knowing about it actually. Just I'll chant from 3-4 lines actually.
Yes, please. Thank you.
Om Mayi Medham, Medham, Mayi Mayi Medham, Mayi Mayi Medham, Mayi Mayi Medham, Mayi Medham, Mayi Mayi Medham, Medham, Mayi Prajam, Prajam, Mayi Medham, Medham, Mayi Prajam. Mayi Prajam, Prajam, Mayi Mayi Prajam, Mayi Mayi Prajam, Mayi Mayi Prajam, Mayi. Prajam Mayi Mayi Prajam Prajam Mayi Agnir Agnir Mayi Prajam Prajam Mayi Agnihi Prajamiti Prajam Mayi Agnir Agnir Mayi Mayi Agnaste Jaste Jognir Mayi Mayi Agnaste Jaha Agnaste Jaste Jognir Agnaste Jo Dadhatu Dadhatu Te Jognir Agnaste Jo Dadhatu Tejo Dadhatu Dadhatu Te Jaste Jo Dadhatu Mayi Mayi Dadhatu Te Jaste Jo Dadhatu Mayi Dadhatu Mayi Mayi Dadhatu Dadhatu Mayi Medham Medham Mayi Dadhatu Dadhatu Mayi Medham Mayi Medham Medham Mayi Mayi Medham Mayi Mayi Medham Mayi.
Oops, sorry, I think it got muted. Hello?
It's okay now?
Yeah, yeah, it's, sorry, I mean, I don't know what happened. It suddenly got muted. Now it is muted again. Oh, it says self muted.
Yeah, hello? Actually, it goes in the same way anyway. So I just thought of
it. It is very interesting. Yes, thank you. Thank you very much. Yes. Dhanyavadaha. So, what is the significance of chanting in these specific sequences? when the shlokam is available as a single statement, see, that is exactly, if it is just a single statement, there are like huge possibilities of variations which are generated. Okay, so if for a very brief example, if you look at the Carnatic music Kritis, so they are hardly 200 years old. Say that when the Trinity were there, say Dikshita, Tyagaraja and Shamashastri, but today there are like 100 variations of each Kriti. So nobody originally knows what was the original Sangati. So the words may be the same, but the Swaras and the number of Sangatis and all is different. One is of course the creative this thing of the musicians, but also because when you are just transmitting the line, there are huge possibilities of variation. So all these permutations are meant to make sure that not even one syllable or one swara goes this way or that. So because, as I said, the swara sequence and everything varies in the different ones, if it goes wrong, even one, you know, when one swara is wrong, you will immediately catch it. That is why we have this, and that is why the tradition has survived for like thousands of years without the without variations like that. So there are shakhas, but there are not like I sing it this way and you sing it this way. Such variations are not there. So that sustenance is purely because all this is like, you know, tying up the patha in different ways, so that if you go wrong in one patha, the other one will is automatically there to cross verify. Okay, I think that's it for today. Any other questions? I think, I mean, most of them, there are yes, comments, and I agree with most of them. Yes, I mean, it's a huge treasure. Though we have lost some, we still have many of which we should be proud of. So we'll continue together tomorrow. Okay, dhanyavadaha.